शुक्लां वरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषं पराशरात्मजं वन्दे सुखतातं तपोनिधिं व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः अविकाराय शुद्धाय नित्याय परमात्मने सदैकरूपरूपाय विष्णवे सर्वजिष्णवे यस्य स्मरणमात्रेण जन्म संसारबन्धनात् विमुच्यते नमस्तैस्मै विष्णवे प्रभविष्णवे ॐ नमो विष्णवे प्रभविष्णवे श्रीवै सम्पायन उवाच श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः युधिष्ठिरः सान्तनवम् पुनरेवाभ्यभाषत युधिष्ठिर उवाच किमेकम् दैवतम् लोके किम् वाप्येकम् परायणम् स्तुवन्तः कङ्कमर्चन्तः प्राप्नुयुर्मानवा शुभम् को धर्मः सर्वधर्माणाम् भवतः परमो मतः किम् जपन्मुच्यते जन्तुर्जन्म संसारबन्धनात् श्रीभीष्म उवाच जगत्प्रभुम् देवदेवम् अनन्तम् पुरुषोत्तमम् स्तुवन्नाम सहस्रेण पुरुषः सततोत्थितः तमेव चार्चयन्नित्यम् भक्त्या पुरुषमव्ययम् ध्यायन् स्तुवन्नमस्यंश्च यजमानस्तमेव च अनादिनिधनम् विष्णुम् सर्वलोकमहेश्वरम् लोकाध्यक्षम् स्तुवन्नित्यम् सर्वदुःखादिगो भवेत् ब्रह्मण्यम् सर्वधर्मज्ञम् लोकानाम् कीर्तिवर्धनम् लोकनाथम् महद्भूतम् सर्वभूतभवोद्भवम् एष मे सर्वधर्माणाम् धर्मोऽधिकतमो मतः यद्भक्त्या पुण्डरीकाक्षम् स्तवैरच्चेन्नरः सदा परमम् यो महत्तेजः परमम् यो महत्तपः परमम् यो महद्ब्रह्म परमम् यः परायणम् पवित्राणाम् पवित्रम् यो मङ्गलानाम् च मङ्गलम् दैवतम् देवतानाम् च भूतानाम् यो व्ययः पिता यतः सर्वाणि भूतानि भवन्यादियुगागमे यस्मिंश्च प्रलयाम् यान्ति पुनरेव युगक्षये तस्य लोकप्रधानस्य जगन्नाथस्य भूपते विष्णोर्नाम सहस्रम् मे शृणु पापभयापहम् यानि नामानि गौणानि विख्यातानि महात्मनः ऋषिभिः परिगीतानि तानि वश्यामि भूतये ऋषिर्नामाम् सहस्रस्य वेदव्यासो महामुनिः छन्दोऽनुष्टुप्तधा देवो भगवान् देवकीसुतः अमृतांशूद्भवो बीजम् शक्तिर्देवकीनन्दनः ऋषामा हृदयम् तस्य स्यान्त्यर्देवि नियुज्यते विष्णुम् जिष्णुम् महाविष्णुम् प्रभविष्णुम् महेश्वरम् अनेकरूपदैत्यान्तम् नमामि पुरुषोत्तमम् अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रमहामन्त्रस्य श्रीवेदव्यासो भगवान् ऋषिः अनुष्टुप् छन्दः श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता अमृतांशूद्भवो भानुरिति बीजम् देवकीनन्दनः स्रष्टेति शक्तिः उद्भवक्षोभणो देव इति परमो मन्त्रः शङ्खभृन्नन्दकी चक्रीति कीलकम् साङ्गधन्वा गदाधर इत्यस्त्रम् रथाङ्गपाणिरक्षोभ्य इति नेत्रम् त्रिसामा सामगः सामेति कवचम् आनन्दम् परम् ब्रह्मेति योनिः ऋतुः सुदर्शनः काल इति दिग्बन्धः श्रीविश्वरूप इति ध्यानम् श्रीमहाविष्णुप्रीत्यर्थे सहस्रनाम जपे विनियोगः ध्यानम् क्षीरोधन्वत्प्रदेशे शुचिमणिविलसत्सैकते मौक्तिकानाम् माला क्लुप्तासनस्तस्फटिकमणिनिभै मौक्तिकैर्मण्डिताङ्गः शुभ्रैरभ्रैरदभ्रैरुपरि विरचितैर्मुक्त पीयूष वर्षैः आनन्दीनः पुनीया दरिनलिनगदा शङ्कपाणिर्मुकुन्दः भूपादौ यस्य नाभिर्वियदसुरनिलश्चन्द्र सूर्यौ च नेत्रे कर्णावासा शिरोज्जौर्मुखमपि दहनो यस्य वास्तेयमब्धिः अन्तस्तम् यस्य विश्वम् सुरनरखगो भोगि गन्धर्वदैत्यैः चित्रम् रम् रम्यते तम् त्रिभुवन वपुषम् विष्णुमीशम् नमामि ॐ नमो भगवते वासुदेवाय शान्ताकारम् भुजगशयनम् पद्मनाभम् सुरेशम् विश्वाधारं गगन सदृशं मेघवर्णं शुभांगं लक्ष्मीकांतं कमलनयनं योगी हृद्यानगम्यं वंदे विष्णुं भवभयहरं सर्वलोकैकनाथं मेघस्यामं पीतकौसेयवासं श्रीवत्सांगं कौस्तुभोद्भासितांगं पुण्योपेतं पुंडरीकायताक्षं विष्णुं वंदे सर्वलोकैकनाथं नमः समस्तभूतानां आदिभूताय भूभृते अनेकरूपरूपाय विष्णवे प्रभविष्णवे शशङ्खचक्रं सकिरीटकुण्डलं सपीतवस्त्रं सरसीरुहेक्षणं सहारवक्षस्थलशोभिकौस्तुभं नमामि विष्णुं शिरसा चतुर्भुजं छायायां पारिजातस्य हेमसिंहासनोपरि आसीनमम्बुदस्याममायताक्षमलङ्कृतम् चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कितवक्षसं रुक्मिणी सत्यभामाभ्यां सहितं कृष्णमाश्रये ॐ विश्वं विष्णुर्वशत्कारो भूतभव्यभवत्प्रभुः भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः भूतात्मा परमात्मा च मुक्तानां परमागतिः अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च योगो योगविदाम्नेता प्रधानपुरुषेश्वरः नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः सर्वस्सर्वस्सिवस्ताणुः भूतादिर्निधिरव्ययः सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः स्वयम्भूशम्भुरादित्यः पुष्कराक्षो महास्वनः अनादिनिधनो धाता विधाता धातुरुत्तमः अप्रमेयो हृषीकेशः पद्मनाभोमरप्रभुः विश्वकर्मा मनुस्त्वष्टा सविष्टस्त विरो ध्रुवः अग्राह्यः स्वतः कृष्णो लोहिताक्ष प्रतर्दनः प्रभूतस्त्रिककुब्दाम पवित्रं मङ्गलं परम् ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः अनुत्तमो दुरादर्श कृतज्ञकृतिरात्मवान् सुरे संसरणं सर्व विश्वरेता प्रजाभवः अहं संवत्सरो व्याड प्रत्ययः सर्वदर्शनः अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः वृषा कपिरमेयात्मा सर्वयोग विनिःसृतः वसुर्वसुमना सच्चः समात्मा सम्मितः समः अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः रुद्रो बहुशिरा बभ्रुः विश्वयोनिः शुचिश्रवाः अमृतः शाश्वतस्ताणु वरारोहो महातपाः सर्वगः सर्वविद्वाणु विश्वक्सेनो जनार्दनः वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः चतुरात्मा चतुर्व्यूहः चतुर्दंष्टश्चतुर्भुजः भ्राजिष्णुः भोजनं भोक्ता सहिष्णुः जगदादिजः अनघो विजयो जेता विश्वयोनिः पुनर्वसुः उपेन्द्रो वामनः प्रांसुः अमोघः शुचिरूर्जितः अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः वैद्यो वैद्यः सदा योगी वीरः माधवो मधुः अतीन्द्रियो महामायो महासाहो महाबलः महाबुद्धिः महावीर्यो महाशक्तिः महाज्युतिः अनिर्देश्य वपुः श्रीमान् अमेयात्मा महादृग् महेश्वासो महीभर्ता श्रीनिवासः सताङ्गतिः अनिरुद्धः सुरानन्दो गोविन्दो गोविदाम्पतिः मरीचिद्धमनोहंसः सुपर्णो भुजगोत्तमः हिरण्यनाभः सुतपः पद्मनाभः प्रजापतिः अमृत्युः सर्वदृक्सिंहः सन्धाता सन्धिमान् स्थिरः अजो दुर्मर्षणः सास्ता विश्रुतात्मा सुरारिः गुरुर्गुरुतमो धामः सच्चः सच्च पराक्रमः निमिषो निमिषस्रग्वी वाचस्पतिरुदारधीः अग्रणी ग्रामणी श्रीमान् न्यायो नेता समीरणः सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः अह संवर्तको वह्निः अनिलो धरणीधरः सुप्रसादः प्रसन्नात्मा विश्वदृग्विश्वभुग्विभुः सत्कर्ता सत्कृतः साधुः जह्नुर्नारायणो नरः असङ्ख्येयो प्रमेयात्मा विशिष्टः शिष्टकृच्युचिः सिद्धार्थः सिद्ध सङ्कल्पः सिद्धदः सिद्धि साधनः वृषा हि वृषभो विष्णुः वृषपर्वा वृषोधरः वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुधो वसुः नैकरूपो बृहद्रूपौ सिपिविष्टः प्रकाशनः ओजस्तेजो ज्युतिधरः प्रकाशात्मा प्रतापनः रुद्ध स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्कर द्युतिः अमृतांशुद्भवो भानुः रसबिन्दुः सुरेश्वरः औषधम् जगतः सेतुः सच्च धर्म पराक्रमः भूतभव्य भवन्नादः पवनः पावनो नरः कामः कामकृत्कान्तः कामः कामप्रदः प्रभुः युगादिकृद्युगावर्तो नैकमायो महासनः अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् इष्टो विशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः क्रोधः क्रोधकृत्कर्ता विश्वबाहु महीधरः अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः अपान्निधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः स्कन्दः स्कन्दधरो दुर्यो वरदो वायुवाहनः वासुदेवो बृहद्भाणुः आदिदेवः पुरन्दरः अशोकस्तारणस्तारः सूरः सौरिर्जनेश्वरः अनुकूलस्य तावर्तः पद्मी पद्मनिभेक्षणः पद्मनाभो रवीन्दाक्षः पद्मगर्भः शरीरभृद् महद्धिः रुद्धो वृद्धात्मा महाक्षो गरुडध्वजः अतुलस्य रभो भीमः समयज्ञो हविर्हरिः सर्वलक्षणलक्ष्मण्यो लक्ष्मीवान् समितिञ्जयः विक्षरो रोहितो मार्गो हेतुर्दामोदरः सह महीधरो महाभागो वेगवानमितासनः उद्भवक्षोभणो देवः श्रीगर्भः परमेश्वरः करणम् कारणम् कर्ता विकर्ता गहनो गुहः व्यवसायो व्यवस्थानः संस्थानस्थानदो ध्रुवः परद्धिः परमस्पष्टः तुष्टः पुष्टः सुभेक्षणः रामो विरामो विरजो मार्गो नेयो नयो नयः वीरशक्तिमताम् श्रेष्ठो धर्मो धर्मविदुत्तमः वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवप्रदुः हिरण्यगर्भस्य तृघ्नो व्याप्तो वायुरधोक्षजः ऋतुः सुदर्शनः कालः परमेष्टी परिग्रहः उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः विस्तारस्तावरस्ताणुः प्रमाणम् बीजमव्ययम् अर्धोऽनर्धो महाकोशो महाभोगो महाधनः अनिर्भिन्नस्तविष्टो भूर्धर्मयूपो महामघः नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः यज्ञयुज्यो महेज्यश्च क्रतुः सत्रम् सताम् गतिः सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् मनोहरो जितक्रोधो वीरबाहुर्विदारणः स्वापनः स्वभसो व्यापी नैकात्मा नैककर्मकृत् वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् अविज्ञाता सहस्रांशुः विधाता कृतलक्षणः गभस्तिरेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः आदिदेवो महादेवो देवेशो देवभृद्गुरुः उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः शरीरभूतभृद्भोक्ता कपीन्द्रो भूरि दक्षिणः सोमको मृतपः सोमः पुरजित्पुरुषत्तमः विनयो जयः सत्यसन्धो दासार्हः सात्वताम् पतिः जीवो विनयिता साक्षी मुकुन्दो मितविक्रमः अम्भो निधिरनन्तात्मा महोदधिशयोऽन्तकः अजो महार्हः स्वाभाव्यो जिता मित्रः प्रमोदनः आनन्दो नन्दनो नन्दः सत्य धर्मा त्रिविक्रमः महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् महावराहो गोविन्दः सुषेणः कनकाङ्गदी गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः मेधा स्वाङ्गोजितः कृष्णो दृढः सङ्कर्षणोच्युतः वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः भगवान् भगः नन्दी वनमाली हलायुधः आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः सुधन्वाखण्ड परशुः दारुणो द्रविणप्रदः दिवस्पृक् सर्वद्रुव्यासो वाचस्पतिरयो निजः त्रिसाम सामगः साम निर्वाणम् वेषजम् विशक् सन्न्यासकृच्छमः सान्तो निष्ठा शान्तिः परायणम् शुभाङ्गः शान्तिरः स्रष्टा कुमुदः कुवलेशयः गोवितो गोपतिर्गोप्ता वृषभाषो वृषप्रियः अनिवर्तीनिवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः श्रीवत्सवक्षा श्रीवासः श्रीपतिः श्रीमताम्बरः ശ്രീധശ്രീ സശ്രീനിവാസ ശ്രീനിധി ശ്രീവിഭാവനഃ ശ്രീധര ശ്രീകര ശ്രേയ ശ്രീമാൻ ലോകത്രയോശ്രയഃ സ്വക്ഷസ്വംഗസ്യ താനന്ദോ നന്ദി ജ്യോതിർഗണേശ്വരഃ വിജിതാത്മാ വിധേയാത്മാ സത്കീർത്തിശ്ചിന്ന സംശയഃ ഉദീർണഃ സർവതക്ഷഃക്ഷുഃഗ്രണീശഃ ശാശ്വതഃ സ്ഥിരഃ ഭൂഷയോ ഭൂഷണോ ഭൂതിവിശോകഃ ശോകനാശനഃ അർച്ചിഷ്മാനർച്ചിതഃ കുംഭോ വിശുദ്ധാത്മാ വിശോധനഃ അനിരുദ്ധോ പ്രതിരഥ പ്രദ്യുമ്നോ മിതവിക്രമഃ കാലനേമിനിഃ ഹാവീരഃ സൗരിഃ സൂരജനേശ്വരഃ ത്രിലോകാത്മാ ത്രിലോകേശഃ കേശവഃ കേശിഹാഹരിഃ കാമദേവഃ കാമപാലഃ കാമീ കാന്തഃ കൃതാഗമഃ അനിർദ്ദേശ്യ വപുഃ വിഷ്ണു വീരോ നന്ദോ ധനഞ്ജയഃ ബ്രഹ്മണ്യോ ബ്രഹ്മകൃദ്ബ്രഹ്മ ബ്രഹ്മ ബ്രഹ്മവിവർദ്ധനഃ ബ്രഹ്മവിദ്ബ്രാഹ്മണോ ബ്രഹ്മീ ബ്രഹ്മജ്ഞോ ബ്രാഹ്മണപ്രിയഃ മഹാക്രമോ മഹാകർമ്മ മഹാതേജാ മഹോരഗഃ മഹാക്രതുർമഹായജ്വാ മഹായജ്ഞോ മഹാഹവിഃ സ്തവ്യസ്തവ പ്രിയ സ്തോത്രം സ്തുതിസ്തോതാരണപ്രിയഃ പൂർണഃ പൂരയിതാ പുണ്യഃ പുണ്യകീർത്തിരനാമയഃ മനോജവഃ തീർത്ഥകരോ വസുരേതാ വസുപ്രദഃ വസുപ്രദോ വാസുദേവോ വസുർവസുമനാഹവിഃ സദ്ഗതിഃ സത്കൃതിഃ സത്താ സദ്ഭൂതിഃ സത്പരായണഃ സൂരസേനോ യദുശ്രേഷ്ഠഃ സന്നിവാസഃ സുയാമുനഃ ഭൂതവാസോ വാസുദേവഃ സർവാസുനിലയോ നലഃ ദർപഃ ദർപദോ ദൃപ്തോ ദുർധരോധാ പരാജിതഃ വിശ്വമൂർത്തിർമഹാമൂർത്തിർ ദീപ്തമൂർത്തിരമൂർത്തിമാൻ അനേകമൂർത്തിരവ്യക്തഃ ശതമൂർത്തിഃ ശതാനനഃ ഏകോ നൈകഃ സവഃ കം കിം യത്തത് പദമനുത്തമം ലോകബന്ധുഃ ലോകനാഥോ മാധവോ ഭക്തവത്സലഃ സുവർണവർണോ ഹേമാംഗോ വരാംഗശ്ചന്ദനാംഗദി വീരഃ വിഷമഃ ശൂന്യോ ഘൃതാസീരചലശ്ചലഃ അമാനീമാനദോ മാന്യോ ലോകസ്വാമീ ത്രിലോകധൃത് സുമേധാമേധജോ ധന്യഃ സത്യമേധാധരാധരഃ തേജോ വൃഷോ ജ്യുതിധരഃ സർവശസ്ത്രഭൃതാംബരഃ പ്രഗ്രഹോ നിഗ്രഹോ വ്യഗ്രോ നൈകശൃംഗോ ഗദാഗ്രജഃ ചതുർമൂർത്തിഃ ചതുർബാഹുഃ ചതുർവ്യൂഹശ്ചതുർഗതിഃ ചതുരാത്മാ ചതുർഭാവശ്ചതുർവേദവിവേകപാത് സമാവർത്തോ നിവൃത്താത്മാ ദുർജയോ ദുരതിക്രമഃ ദുർലഭോ ദുർഗമോ ദുർഗോ ദുരാവാസോ ദുരാരിഹ ശുഭാംഗോ ലോകസാരംഗഃ സതന്തുസ്തന്തുവർദ്ധനഃ ഇന്ദ്രകർമാ മഹാകർമാ കൃതകർമാ കൃതാഗമഃ ഉദ്ഭവഃ സുന്ദരഃ സുന്ദോ രത്നനാഭഃ സുലോചനഃ അർക്കോ വാജസനഃ ശൃംഗീ ജയന്തഃ സർവവിജ്ജയീ സുവർണബിന്ദുരക്ഷോഭ്യഃ സർവഭാഗീശ്വരേശ്വരഃ മഹാഹൃദോ മഹാകർത്തോ മഹാഭൂതോ മഹാനിധിഃ കുമുദഃ കുന്ദരഃ കുന്ദഃ പർജന്യഃ പാവനോ നിലഃ അമൃതാസോ മൃതവപുഃ സർവജ്ഞഃ സർവതോമുഖഃ സുലഭഃ സുരതഃ സിദ്ധഃ ശത്രുജിസ്ശത്രുതാപനഃ ന്യഗ്രോധോദുംബരോ സ്വസ്ഥഃ ചാണൂരാന്ധ്രനിഷൂദനഃ സഹസ്രാർച്ചിഃ സപ്തജിഹ്വഃ സപ്തൈധാ സപ്തവാഹനഃ അമൂർത്തിരനഗോചിന്ത്യോ ഭയകൃദ്ഭയനാശനഃ അണുർബൃഹത്കൃശസ്ഥൂലോ ഗുണദൃർനിർഗുണോ മഹാൻ അദൃതസ്വദൃതസ്വാസ്യഃ പ്രാംവംശോ വംശവർദ്ധനഃ ഭാരഭൃത്കഥിതോ യോഗീ യോഗീ സഃ സർവകാമദഃ ആശ്രമശ്രവണക്ഷാമഃ സുപർണോ വായുവാഹനഃ ധനുർധരോ ധനുർവേദോ ദണ്ഡോ ദമയിതാദമഃ അപരാജിതഃ സർവസഹോ നിയന്താ നിയമോയമഃ സത്വവാൻ സാത്വികഃ സത്യഃ സത്യധർമ്മപരായണഃ അഭിപ്രായഃ പ്രിയാർഹോർഹ പ്രിയകൃത്പ്രീതിവർദ്ധനഃ വിഹായ സഗതിർജ്യോതിഃ സുരുചിഃ കുത ഭുഗ്വിഭുഃ രവിർവിരോചനഃ സൂര്യഃ സവിതാരവിലോചനഃ അനന്തോ ഹുതഭുഗ്ഭോക്താ സുഖദോ നൈകദോഗ്രജഃ അനിർവിണ്ണഃ സദാമർഷീ ലോകാധിഷ്ഠാനമദ്ഭുതഃ സനാസനാതമതമഃ കപിലഃ കപിരവ്യയഃ സ്വസ്തിഃ സ്വസ്തി കൃത് സ്വസ്തി സ്വസ്തി ഭുക് സ്വസ്തി ദക്ഷിണഃ അരൗദ്രഃ കുണ്ഡലീ ചക്രീ വിക്രമ്യോജിത ശാസനഃ ശബ്ദാതികഃ ശബ്ദസഃ ശിശിരഃ സർവരീകരഃ അക്രൂരഃ പേസലോ ദക്ഷോ ദക്ഷിണക്ഷമിണാംവരഃ വിദ്വത്തമോ വീതഭയഃ പുണ്യശ്രവണകീർത്തനഃ ഉത്താരണോ ദുഷ്കൃതിഃ പുണ്യോ ദുഃസ്വപ്നനാശനഃ വീരഃ രക്ഷണഃ സന്തോ ജീവനഃ പര്യവസ്ഥിതഃ അനന്തരൂപോനന്തശ്രീജിതമന്യുഃ ഭയാവഹഃ ചതുരസ്രോ ഗഭീരാത്മാ വിദിശോ വ്യാദിശോ ദിശഃ അനാദിഭൂർഭുവോ ലക്ഷ്മീ സുവീരോ രുചിരാംഗദഃ ജനനോ ജനജന്മാദിഃ ഭീമോ ഭീമ പരാക്രമഃ आधार निलयोधाता पुष्पहास प्रजागरः ऊर्ध्वगः सत्पथाचार प्राणदः प्रणवपणः प्रमाणम् प्राणनिलय प्राणभृत्प्राण जीवनः तत्त्वम् तत्त्वविदेकात्मा जन्म मृत्युजरादिगः भूर्भुवः स्वस्तरुस्तारः सविता प्रपितामहः यज्ञो यज्ञपतिर्यज्ञा यज्ञाङ्गो यज्ञवाहनः यज्ञभृत्यज्ञकृत्यज्ञी यज्ञभुक्यज्ञसाधनः यज्ञान्तकृत्यज्ञगुह्यमन्नमन्नादयेव च आत्मयोनिः स्वयम् जातो वैखानः सामगायनः देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः शङ्खभृन्नन्दकी चक्री साङ्गधन्वा गदाधरः रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः सर्वप्रहरणायुध ॐ नम इति वनमाली गदीसाङ्गी शङ्खी चक्री च नन्दकी श्रीमन्नारायणो विष्णुः वासुदेवोऽभिरक्षतु वनमाली गदीसाङ्गी शङ्खी चक्री च नन्दकी श्रीमन्नारायणो विष्णुः वासुदेवोऽभिरक्षतु वनमाली गदीसाङ्गी शङ्खी चक्री च नन्दकी श्रीमन्नारायणो विष्णुः वासुदेवोऽभिरक्षतु फलश्रुतिः इतीदम् कीर्तनीयस्य केशवस्य महात्मनः नाम्नाम् सहस्रम् दिव्यानाम् अशेषेण प्रकीर्तितम् य इदम् शृणुयान्नित्यम् यश्चापि परिकीर्तयेत् नाशुभम् प्राप्नुयात् किञ्चित् सोमुत्रेह च मानवः वेदान्तगो ब्राह्मणस्य क्षत्रियो विजयी भवेत् वैश्यो धनसमृद्धस्य शूद्रः सुखमवाप्नुयात् धर्माधी प्राप्नुयात् धर्ममर्धाधी चार्धमाप्नुयात् कामानवाप्नुयात् कामी प्रजाधी चाप्नुयात् प्रजा भक्तिमान्यः सदोत्थाय शुचिः सद्गतमानसः सहस्रम् वासुदेवस्य नाम्नामेतत् प्रकीर्तयेत् यतः प्राप्नोति विपुलम् व्याधि प्राधान्यमेव च अचलाम् श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् न भयम् क्वचिदाप्नोति वीर्यम् तेजस्य विन्दति भवत्य रोगो द्युतिमान् बलरूपगुणान्वितः रोगार्तो मुच्यते रोगात् बद्धो मुच्येत बन्धनात् भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः दुर्गान्यतितरत्यासु पुरुषः पुरुषोत्तमम् स्तुवन्नाम सहस्रेण नित्यम् भक्ति समन्वितः वासुदेवाश्रयो मत्यो वासुदेव परायणः सर्वपाप विशुद्धात्मा याति ब्रह्म सनातनम् न वासुदेव भक्ताना न शुभम् विद्यते क्वचित् जन्म मृत्यु जरा व्याधि भयम् नैवोपजायते इमम् स्तवमधीयान श्रद्धा भक्ति समन्वितः युज्येतात्म सुख क्षान्ति श्रीधृति स्मृति कीर्तिभिः न क्रोधो न च मात्सर्यम् न लोभो नाशुभामतिः भवन्ति कृत पुण्यानाम् भक्तानाम् पुरुषोत्तमे द्यौस चन्द्रार्क नक्षत्र कन्दिशो भूर्महोधधिः वासुदेवस्य वीर्येण विधृतानि महात्मनः ससुरासुर गन्धर्वम् सयक्षोरगराक्षसम् जगद्वशे वर्ततेदम् कृष्णस्य सचराचरम् इन्द्रियाणि मनोबुद्धिः सत्त्वम् तेजो बलम् धृतिः वासुदेवात्मकान्याहु क्षेत्रम् क्षेत्रज्ञ एव च सर्वागमानामाचारः प्रथमम् परिकल्पते आचार प्रभवो धर्मो धर्मस्य प्रभुरच्युतः ऋषयः पितरो देवा महाभूतानि धातवः जङ्गमाजङ्गमम् चेदम् जगन्नारायणोद्भवम् योगो ज्ञानम् तथा साङ्ख्यम् विद्या शिल्पानि कर्म च वेदशास्त्राणि विज्ञानम् एतत् सर्वम् जनार्दनात् एको विष्णुः महद्भूतम् पृथग्भूतान्यनेकशः त्रिलोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः इमम् सर्वम् भगवतो विष्णो व्यासेन कीर्तितम् पटे ध्ययि चेत् पुरुषः श्रेयः प्राप्तुम् सुखानि च विश्वेश्वरमजम् देवम् जगतः प्रभुमव्ययम् भजन्ति ये पुष्कराक्षम् न ते यान्ति पराभवम् न ते यान्ति पराभवम् वो नम इति अर्जुन उवाच पद्मपत्र विशालाक्ष पद्मनाभ सुरोत्तम भक्तानामनुरक्तानाम् त्राता भव जनार्दन श्रीभगवानुवाच यो माम् नाम सहस्रेण स्तोतुमिच्छति पाण्डव सोऽहमेकेन श्लोकेन स्तुत एव न संशयः स्तुत एव न संशयः वो नम इति व्यास उवाच वासनाद्वासुदेवस्य वासितम् भुवनत्रयम् सर्वभूत निवासोऽसि वासुदेव नमोऽस्तुते वासुदेव नमोऽस्तुत ॐ नम इति। पार्वत्युवाच केनोपायेन लघुना विष्णोर्नाम सहस्रकम् पठ्यते पण्डितैर्नित्यम् श्रोतुमिच्छाम्यहम् प्रभो। ईश्वर उवाच श्रीराम राम रामेति रमे रामे मनोरमे सहस्रनाम तत्तुल्यम् राम नाम वरानने। श्रीराम राम रामेति रमे रामे मनोरमे सहस्रनाम तत्तुल्यम् राम नाम वरानने। श्रीराम राम रामेति रमे रामे मनोरमे सहस्रनाम तत्तुल्यम् राम नाम वरानने। राम नाम वरानने ॐ नम इति। ब्रह्मोवाच नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षि शिरोरुबाहवे सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः। सहस्रकोटियुगधारिणमोऽं नम इति। सञ्जय उवाच यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीर्विजयो भूतिः ध्रुवा नीतिर्मतिर्मम। श्रीभगवानुवाच अनन्याश्चिन्तयन्तो माम् ये जनाः पर्युपासते तेषाम् नित्याभियुक्तानाम् योगक्षेमम् वहाम्यहम्। परित्राणाय साधूनाम् विनाशाय च दुष्कृताम् धर्म संस्थापनार्थाय सम्भवामि युगे युगे। आर्ता विषण्णा सिरिलाश्च भीता घोरेषु च व्याधिषु वर्तमानाः सङ्कीर्त्य नारायण शब्दमात्रम् विमुक्त दुःखा सुखिनो भवन्तु। कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृते स्वभावात् करोमि यद्यत् सकलम् परस्मै नारायणायेति समर्पयामि।